सर्वेभ्यः नमस्काराः। अद्य सिद्धान्तकौमुद्याः हल्सन्धिप्रकरणे श्रुत्वसन्धौ शात् इति श्रुत्वसन्धिनिषेध विधायकसूत्रादारभ्यते। हल्सन्धीनाम् अध्ययनम् आरब्धं। स्तोहुश्चुनाश्चुः इति हल्सन्धिषु प्रथमं सूत्रम्। सकारतवर्गयोः शकारसवर्गाभ्यां योगे शकारसवर्गौ आदेशो भवतः इति सूत्रार्थः। येनाक्षरसमाम्नानि अधिगम्यमहेश्वरान् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य चतुर्थीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। स्तोहुश्चुनाश्चुः इति श्चुत्वसन्धिविधायकं सूत्रम्। स्तोः सकारतवर्गयोः शकारसवर्गाभ्यां योगे शकारसवर्गौ स्तः इति सूत्रार्थः। हरिष्येते, रामश्चिनोति, सच्चित्, शाङ्गिञ्जय इत्यादीनि उदाहरणानि दृष्टानि। इदानीं तु श्चुत्वसन्धेः निषेधः उच्यते शात् इति सूत्रेण। एकपदात्मकं सूत्रं। स्तोहुश्चुनाश्चुः इत्यतः श्चुः इति अनुवर्तते। न पदान्ताट्टोरणाम् इत्यतः न इति अनुवर्तते। तोषि इत्यतः तोः इत्यपि अनुवर्तते। शात् इति पञ्चमी, शकारात् परस्य, श इत्यस्य पञ्चम्यां शात् इति भवति। अर्थात् शकारात् परस्य तोः तु इति तवर्गः। अनुदित्सवर्णस्य चाप्रत्ययः इत्यनेन उदित् तु इत्ययं तवर्गस्य संज्ञा। तोः इति षष्ठी तवर्गस्य स्थाने श्चुः, श्चुत्वं न भवति। स्तोहश्चुनाश्चुः इत्यस्य वैशिष्ट्यम् उक्तं। प्रायेण सूत्रेषु पूर्वत्वपरत्वं उक्त्वा पाणिनिना कार्यं विधीयते, किन्तु अत्र तु योगे, स्तोहश्चुना योगे, अर्थात् श्चोः परत्वेन सकारतवर्गौ स्तः चेत्, अथवा सकारतवर्गाभ्यां परत्वेन शकारचवर्गौ चेत्, उभयथापि सकारतवर्गयोः स्थाने श्चुत्वं भवति इति सूत्रार्थः। सो दिस् वास् एस् वि सा स्पेशल् केस् वेर् पाणिनि हेस् यूस्ड् तृतीया विभक्ति एण्ड् नाट् पञ्चमी आर् सप्तमी। द यूजुवल् केस् इस् वेर् हि सेस् पञ्चमी, दट् इस् वेन् फालोड् बै आर् सोरि वेन् प्रिसीडेड् बै एण्ड् सप्तमी वेन् फालोड् बै, बट् दिस् इस् अ केस् वेर् हि सेस् श्चुना, which means in association with, that is if shakara or chavarga is either before or after sakara and tavarga, in both cases we get chutva. Now he says shat pare, but if there is tavarga which is preceded by shakara, that is if there is shakara following tavarga, chutva does not apply. That's all. So shat parasya tavargasya chutvam nasya. उदाहरणं पश्यामः। विश् नः इत्यस्ति, नङ् प्रत्ययः, विश् न इत्यस्ति, शकारात् नकारे परे स्तोहुश्चुनाश्चुः इत्यनेन नकारस्य यकारः प्राप्नोति। विष्यः इति स्यात् श्चुत्वे सति, किन्तु न भवति। शकारात् नकारे परे शात् इति सूत्रेण श्चुत्वनिषेधः, तस्मात् विष्णः इत्येव रूपम्। एवमेव प्रश् नः, प्रश्नः, उभयत्रापि श्चुत्वं न भवति। Because the sutra says when tavarga is followed by, is preceded by shakara, there is no shtutva. So in both these cases we find that the nakara remains as it is and is not converted to nyakara, the chavarga panchamakshara. Agrimaha sandhihi bhavati shtutva sandhihi, shtunashtuhu iti shtutva sandhi vidhayakam sutram, padadvayam asti. स्तोः, स्तोहुश्चुनाश्चुः इत्यतः स्तोः इति अनुवर्तते। स्तोः इति षष्ठी, अर्थात् सकारतवर्गयोः। ष्टुना पुनः तृतीया अस्ति, ष्टुना योगे शकारटवर्गाभ्यां योगे ष्टुः शकारटवर्गौ स्तः। दिस् इस् एक्साक्ट्लि लैक् श्चुत्व। सो वेन् इन् बोत् केसस् द स्थानी इस् सकार एण्ड् टवर्ग। If it is associated with chavarga or shakara, we get shtutva. If it is associated with shakara or tavarga, we get shtutva. Stoho shtuna yoga shtuhusyat. This is sutrartha. Atrapi yatha श्चुना स्तोः श्चुः इत्यत्र यथासङ्ख्यम् इत्यनेन सकारस्य शकारः आदेशः चकारस्य तकारस्य चकारः इति निर्णीतं तथैव अत्रापि यथासङ्ख्यमनुदेशसमानाम् इत्यनेन सकारस्य स्थाने मूर्धन्यषकारः आदेशः तकारस्य स्थाने टकारः इत्यादिरीत्या ज्ञातव्यं भवति. रामस् षष्ठः इत्यस्ति सकारस्य षकारेण योगे षकारादेशे रामषष्ठः. रामस् टीकते सकारस्य टकारेण योगेऽपि षकार एव आदेशः रामष्टीकते. पेष्टा इत्यस्य तकारस्य षकारात् परस्य तकारस्य स्थाने टकारः आदेशः पेष्टा. तत् टीका तट्टीका उदाहरणानि. चक्रिन् धौकसे नकारस्य स्थाने टवर्गपञ्चमाक्षरः णकारः आदेशः भवति चक्रिन् ढौकसे. दीस् आर् एक्साम्पल्स् आफ् ष्टुत्वसन्धि various forms. Either the sakara and tavarga can either be the previous letter or the latter. Right? So in both cases shtutva also works. Again there is a nishedha for shtutva sandhi, na padantat torana. Padatrayam asti na pada chatvari padani santi vastutaha na padantat tohu anam. इति चत्वारि पदानि वस्तुतः न पदान्तात् टोः अनाम् इति. अत्रापि स्तोः स्तोः शुनाष्टुः इत्यतः स्तोः इति अनुवर्तते. ष्टुनाष्टुः इत्यतः ष्टुः इत्यपि अनुवर्तते. पदान्तात् टोः पदान्तात् इति टोः इत्यस्य विशेषणं. कः अर्थः? पदान्तात् टवर्गात् परस्य. पदान्ते टवर्गः अस्ति चेत् तस्मात् परस्य स्तोः सकारस्य टवर्गस्य च स्थाने ष्टुः ष्टुत्वं न भवति. पदान्ते टवर्गः तस्मात् परत्वेन सकारः टवर्गो वा अस्ति चेत् ष्टुत्वं न भवति. अनाम् इत्येतत् किम् इति अग्रे पश्यामः. सो दट् सूत्र टेल्स् इफ् देर् इस् टवर्ग अट् द एण्ड् आफ् अ पद विच् इस् फालोड् बै सकारो अर् टवर्ग देन् देर् इस् नो अष्टुत्व. पदान्तात् टवर्गात् परस्य अनामः स्तोः अष्टुः न स्यात् इति सूत्रार्थः. षट् सन्तः इत्यस्ति षट् इति पदं. तस् पदान्ते अस्ति टवर्गः अर्थात् टकारः टवर्गीयाक्षरः टवर्गीयाक्षरं. कस्मात् परत्वेन सकारः अस्ति चेत् ष्टुत्वं न भवति. वस्तुतः षट् सन्तः इति स्थिते षकारः प्राप्नोति न भवति. न पदान्तात् टोरनाम् इति निषेधात् न भवति. षट् ते इति स्थितेपि षट्टे इति तकारस्य टकारः न भवति. सो देर् इस् इन् बोत् केसेस् देर् इस् अ टकार अट् द एण्ड् आफ् द पद वेन् इट् इस् फालोड् बै ईदर् सकार आर् तवर्ग देर् इस् नो अष्टुत्व. पदान्तात् किम्? सः टवर्गीया वर्णः पदान्ते एव स्यात् इति नियमः. पदस्य मध्ये टवर्गात् सकारः सकारस्य तकारस्य वा योगः अस्ति चेत् भवत्येव. ईट् ते ईडस्तुतौ इति धातुः. तस्य आत्मनेपदे लटि प्रथमपुरुषैकवचने ते इति प्रत्ययः. ईट् इति धातुः ईड् इति धातुः तस्य चत्वेन ईट् इति भवति. ईड् धातोः ते प्रत्ययः. पदस्य मध्ये टवर्गः अस्ति तस्मात् परत्वेन तकारः अस्ति अत्र तु ष्टुत्वं भवत्येव. ष्टुत्वे कृते ईट्टे इति रूपम्. सो हियर् सिन्स् द टकार इस् नाट् इन् अट् द एण्ड् आफ् अ पद देर् इस् नो ष्टुत्वनिषेधः. द ष्टुत्वनिषेधः इस् पदान्तात् टोः. इफ् द टकार इस् अट् द एण्ड् आफ् अ पद देर् इस् ष्टुत्वनिषेधः. सिन्स् दिस् टकार ईट् इस् नाट् अट् द एण्ड् आफ् अ पद देर् इस् नो ष्टुत्वनिषेधः. So you must have noticed already a lot of times this padantat kim. This is what we call dalakritya, where Dikshitar tries to see if every pada in the sutra is sarthaka, that is needed. So when Panini is making the sutras, his aim is to alpaksharam asandigdham, to use as few words as possible to convey the entire meaning. So he whenever there is a question, it says padantat kim, or it has been lots of times seen. Say ing ante kyun, you had in many previous sutras. All this is what we call dalakritya, where you see what is the meaning of the sutra. You also examine what would be what would happen if the sutra is phrased differently. If Panini left sampada, if we eliminate sampada from the sutra, what would be the effect on prakriya? So always the question is padantat kim, means why does he say padanta? It is, was it necessary? What would happen if that word was not there? So the example which is given there is something which shows what would happen if that pada was not there. For example, if padantat was not there in the sutra, in na padantat toranam, if he didn't say padantat, then even here there would not have been stutva, and then we would not have been able to derive the form itte. Right? Itte iti rupam siddhyati padantat iti uktatvat. Tohu kim तवर्गात् सकारतवर्ग परस्य सकारस्य तवर्गस्य च शुत्वनिषेधः. शकारात् परत्वेन अस्ति चेत्, शकारः पदान्ते अस्ति चेत् शुत्वं भवत्येव. सर्पिष्टमम् इति दीयते उदाहरणं. सर्पिः घृतम् इत्यर्थः. सर्पिष्टमम् इत्यस्ति. अत्र पदान्ते शकारः अस्ति, तस्मात् परत्वेन तकारः अस्ति चेत् शुत्वं भवति. केवलं तवर्गः तवर्गस्य सत्त्वे एव शुत्वनिषेधः, न तु षकारस्य सत्त्वे. इदानीं सूत्रे एकं पदमासीत् न पदान्तात् टोः अनाम्. अनाम् इत्युक्ते न नाम्. नाम् इति पदं विहाय अन्येषां विषये शुत्वं न भवति इति सूत्रार्थः. अर्थात् पदान्तात् टवर्गात् परत्वेन नाम् इति शब्दः अस्ति चेत् शुत्वं भवति इति सूत्रस्य अभिप्रायः. वार्तिककारः वदति न केवलं नाम् इति पदस्य, किन्तु अनाम् नवति नगरीणाम् इति वाच्यम्. पाणिनिना सूत्रे न पदान्ताट्टोरनाम् इत्येव उक्तं, तेन तु न पदान्ताट्टोरनाम् नवति नगरीणाम् इति वक्तव्यम् आसीत्. अर्थात् एतेषां पदानां नाम् नवति नगरी इत्येतेषां पदानां ष्टुत्वं भवत्येव. पदान्तात् टवर्गाद् एतेषु परेषु ष्टुत्वं भवत्येव. सो अनाम् इस् अ निषेध टु द ष्टुत्वनिषेध. दट् इस् मोट् पाणिनि सेयिङ्ग् इस् इफ् फस्ट् इस् ए श्रुणाष्टुः, इफ् देर् इस् शकार आर् टवर्ग विच् इस् इन् असोसियेटेड् वित् सकार आर् टवर्ग, देर् श्रुत्वा देन् हि सेस् निषेध. हि सेस् इफ् द केस् इस् दट् देर् इस् पदान्त टवर्ग विच् इस् फालोड् बै सकार आर् टवर्ग, देर् इस् नो ष्टुत्वा. Except in the case of naam. If padanta tavarga is followed by naam, then there is shtutva, is what Panini means. So Vartikakara says it is not only in case of naam that the exception applies, even in case of navati and nagari. We'll see the example. There is shashu naam. Ityasti shashu iti shakarantam pratipadikam, tasya naam iti pratyayah, aam pratyayah. झलां जशोन्ते इत्यनेन षकारस्य जस्त्वं भवति आदौ षड् नाम् इति भवति. इदानीम् अत्र ष्टुनाष्टुः इति ष्टुत्वं भवेत् नकारस्य. ष्टुनाष्टुः टवर्गात् अर्थात् डकारात् परस्य नकारस्य ष्टुत्वे सति णकारः भवति. पुनः डकारस्य प्रत्ययभाषायां नित्यम् इत्यनेन अनुनासिकत्वे षण्णाम् इति रूपं सिद्ध्यति. षण्णाम् इति रूपम् इष्टं. यदि नपदान्तात् टोः इति उच्यते तर्हि अत्र णत्वं न प्राप्नोति, ष्टुत्वं न प्राप्नोति. इफ् हि हेड् जस्ट् सेड् न पदान्तात् टोः, पदान्ते डकारः अस्ति तवर्गीयवर्णः, तस्मात् तवर्गीयाक्षरे अर्थात् नकारे परे ष्टुत्वं न भवति इति ष्टुत्वनिषेधः. अर्थात् षट् नाम् इति न सिद्ध्यति. किन्तु अनाम् इत्युक्तत्वात् नामः विषये ष्टुत्वनिषेधः न प्रवर्तते. नाम शब्दस्य विषये ष्टुत्वं भवत्येव इत्युक्तत्वात् ष्टुत्वं भवति षण्णाम् इति रूपं सिद्ध्यति. न केवलं षण्णां, षण्णवतिः, षड् नवतिः इत्यस्ति. अत्रापि पदान्ते टवर्गः अस्ति, तस्मात् परत्वेन नकारः अस्ति, ष्टुत्वनिषेधः न पदान्तात् टोः इत्यनेन ष्टुत्वनिषेधः प्राप्नोति. अनां नवति नगरीणाम् इति वाच्यम्. अत एव वार्तिककारेण उक्तं नवतिशब्दस्य विषयेपि ष्टुत्वनिषेधः न भवति. अर्थात् टुत्वं भवति षण्णगर्यः षड् नगर्यः षण्णगर्यः सो एक्सेप्टिङ्ग् दीस् त्री केसस् इट् इस् एक्सेप्टिङ्ग् वेर् अ पदान्त टवर्ग इस् फालोड् बै नाम् नवति आर् नगरी इन् आल् अदर् केसस् इफ् देर् इस् अ पदान्त टवर्ग फालोड् बै सकार आर् टवर्ग देर् इस् नो ष्टुत्वा इस् वाट् दिस् सूत्र टेल्स् क्लियर् अपरमपि श्रुत्वनिषेध निषेधकं सूत्रमस्ति तोः षि पदद्वयं ष्टुनाष्टुः इत्यतः ष्टुः इति न वर्तते न पदान्तटोरणाम् इत्यतः न इति अनुवर्तते ष्टुः न ष्टुत्वं न भवति कदा न भवति बहु सुलभं फ्रम् नौ ओन् यु केन् एक्चुलि ट्रै टु इण्टर्प्रेट् द सूत्रस् बै योरसेल्फ सिन्स् इट् इस् you know already the vibhaktis what vibhakti what would it mean exactly so if you have a vibhakti if you have the words if you know the anuvritti you should be able to tell what is the sutrartha right now it says toho shi shtuhu na there are four words toho shi is what you are hearing in the sutra and shtuhu na is what the anuvritti is so what would be the meaning of this sutra Can anybody attempt? Using the four words, there are four words which you are hearing. Tohu, shi, shtuhu, na. What is the meaning of the sutra? What is the sutra artha? Masuji?
Namaste. Is the anuvritti.
No, she is heard.
Na is negation. You have written Chunashtahu ityataha Stu iti Na padan padan taat
Toranam करेक्ट् सो पुट् दीस् टुगेदर् वाट् इस् द मीनिङ्ग् वाट् वुड् बि द मीनिङ्ग् आफ् द एण्टैर् सूत्र न इस् नेगेशन् पदान्तोरणम् इस् द प्रीवियस् सूत्र फ्रम् विच् वि आर् ब्रिङ्गिङ्ग् इन् न सो न पदान्तोरणम् इत्यतः न इति अनुवर्तते वाट् इस् नेगेटेड् न तोः ष्टुः न देर् आर् ओन्ली फोर् वर्ड्स् यु टु कन्सर्न् युर् सेल्स् तोः षि ष्टुः न एक्साक्ट्लि इट् नेगेट्स् ष्टुः ष्टुत्वं न भवति इति अर्थः कदा न भवति एक्साक्ट्लि दट् इस् आल् तोः षि तवर्गस्य शकारे परे ष्टुत्वं न भवति दट्स् आल् इट् इस् करेक्ट् थेङ्क् यु सो तोः इति षष्ठी तवर्गस्य इत्यर्थः षि इति सप्तमी षकारे परे ष्टुः अर्थात् ष्टुत्वं न न भवति तवर्गस्य षकारे परे ष्टुत्वं न भवति इट् इस् आल् सो फोर् अण्डर्स्टाण्डिङ्ग् एनी सूत्र आल् यु नीड् इस् टु नो हौ टु स्प्लिट् द वर्ड्स् वाट् आर् द विभक्ति आफ़् द वर्ड्स् वाट् इस् द अनुवृत्ति रैट् सो तवर्गस्य षकारे परे ष्टुत्वं न भवति किमुदाहरणं सन् षष्ठः इत्यस्ति सन् इति पदं षष्ठः इति पदं तवर्गस्य नकारः तवर्गः तवर्गस्य षकारे परे ष्टुत्वं न भवति अर्थात् नकारस्य स्थाने णकारः न भवति सन् षष्ठः इति उदाहरणम् अग्रिमं सूत्रं भवति झलां जशोन्ते इति पूर्वमेव अधीतं दिस् सूत्र वास् आलरेडि कवर्ड् इन् अत्सन्धिप्रकरण आन् अ डिफरेण्ट् काण्टेक्स्ट् सिन्स् द काण्टेक्स्ट् रिक्वैर्ड् द अप्लिकेशन् आफ़् झलां जशोन्ते वि आलरेडि स्टडीड् दिस् डु यु रिमेम्बर् वेर् वि स्टडीड् झलां जशोन्ते एनिबडि झलां शुष्वन्ते इति सूत्रं क्व अधीतम्
Correct. Then it gets converted into jash. That's the third letter of the varga. Vargiya pada.
Right. So what was the example? Why
so
did
that
was
the... Example? No, I don't remember the example.
We studied that in a particular...
Sadachara. Sadachara.
Correct. There Sat-achara. Are two examples of just...
Followed by a... And it becomes a sadachara because the because it's converted into the which is the third letter.
Correct. So right. The jastasandhi is correct as in it is jastasandhi. I want to know what is the particular context in which we studied jastasandhi earlier. Because jastasandhi belongs to halsandhi prakarana. It is a halsandhi, but we still studied it in atsandhi because we required it in a context, right? So हीरालाल जी
अची परे
अची परे
जलाम जशा अची परे मींस इफ अच फॉलोज
नो
देन जलाम विल बिकम जश
ओके लेट्स सी अबाउट दैट बट आई वांट टू नो वेयर इन अच
दैट इज व्हाई इट वाज नाउ हियर इट विल बी जलाम जशा जशी इट विल बी कंसोनेंट्स एंड देन इट वाज
No, correct. I mean, Jhalam Jash Jhashi and Jhalam Jashonte are two separate sutras. Jhalam Jash Jhashi says, when Jhal is followed by Jashvarna, it is converted into Jash, which also we studied in Aksandhi. And Jhalam Jashonte also we studied in Aksandhi. I am not asking about the meaning of the sutra. I want to know where, as in, for which particular thing did we study Jhalam Jashonte earlier? What was the context in which Jashita mentioned?
Where Ach follows.
No, what was the example which Dikshita gave for Jalam Jashwante earlier?
Say for example, Sat Achara,
no,
Sat Achara.
No, I don't want that example. I want where in Kaumudi was Jalam Jashwante told first and why? In the Kaumudi context. I'm Right?
Yeah.
Is there anybody who can remember? Okay, there's one person. Right. Or two. Patat pataditi. Amreditasya. Amreditasya antyasya tuva iti sutre. Amreditasya. Okay, so few people. Remember. So amreditasya pararupam na bhavati. इति उक्तं पटत् पटत् इति अस्ति चेत् किं प्रकरणं पररूपप्रकरणम् अव्यक्तानुकरणस्य अत इतौ इत्यनेन ध्वनेररुकरणस्य यः अत् शब्दः तस्य पररूपं भवति इत्युक्तं पटत् इति इत्यस्य चेत् पटिति इति भवति किन्तु न आम्रेडितस्य आम्रेडितस्य प्रागुक्तं न भवति. आम्रेडितं नाम तस्य परम् आम्रेडितं, द्विरुक्तस्य परं रूपं. यत्र द्वित्वं भवति तत्र परं रूपम् आम्रेडितम् इत्युच्यते. आम्रेडितस्य प्रागुक्तम् अर्थात् पररूपं न भवति इति उक्तम्. तकारस्यैव भवति इत्यपि पक्षः अस्ति, किन्तु यदा पररूपं न भवति तदा पठत् पठत् इति इत्यस्ति. तत्र झलां जशोन्ते इत्यनेन तकारस्य दकारे कृते पठत् पठदिति इति भवति. तस्मात् तत्रैव झलां जशोन्ते इति उद्धृतं दीक्षितैः. दट् इस् वै दीक्षितर् इन्ट्रोड्यूसस् द सूत्र झलां जशोन्ते देर् टु एक्स्प्लेन् पठत् पठत् इति. वेन् यु हाव् पठत् पठत् इति यु नीड् जस्त्वा टु कन्वर्ट् द तकार टु दकार. ओके, सो देन् इट् बिकेम् पठत् पठदिति. रैट्, नौ वि हाव् झलां जशोन्ते. And many people seem to be under the impression that jhalam jashonte comes when it is followed by ach, which is not correct, not correct at all, because there is no achi in the sutra. Jhalam jashaha ante kim asti, jhalam jashaha ante iti padatrayam asti, padasya iti adhikriyate, padasya ante, padante jhalam, jhalvarnanam jashaha, jashvarnaha bhavanti. Itteva arthaha, that is all that jhalam jashvante means. It does not tell that jhalvarna has to be followed by an achvarna, which is a very, very wrong impression. Please remove it now. Jhalam jashvante is not restricted to jhal being followed by ach. It occurs wherever jhal is at the end of a pada, irrespective of whatever follows. अग्रे यत्किमपि वर्णः भवतु, यः कोऽपि वर्णः भवतु, झलां जशोन्दे इति प्रवर्तत एव. इवन् इफ् इट् इस् हल्, इवन् इफ् इट् इस् खर्, एनीथिङ्ग् यु हेव् झलां जशोन्ते विल् अप्लै, एस् लाङ्ग् एस् अ झल् वर्ण इस् अट् द एण्ड् आफ् अ पदा. दट् इस् आल् द सूत्र. देर् इस् नो अचि इन् झलां जशोन्ते. झलां जशः अन्ते, पदान्ते झलां जशः स्युः. इफ् यु हेव् जस्ट् वाक् वित् नथिङ्ग् फालोयिङ्ग् इट्, it will be converted to vag. Kakara gets gakara. I mean, you know the meaning. Jash is the third letter. The third letter is the adesha. Even if you have just vak, it is converted to vag. If there is a swara ahead, vak ishaha, then also it is converted to vag ishaha. If there is vak patihi, which is a hal, then also kakara is converted to gakara. Why we do not hear the gakara in other cases is something which happens later. It is after we do the jastva, there might be some other sutra which will convert it back to the first letter. For example, when you have vak patihi, jhalam jashonte will apply, it becomes vag patihi. Then there is kharicha which applies and converts the gakara back to kakara. So we hear vak patihi, but that does not mean that jastva has not applied there. Jastva has applied and it has been, the effect of jastva is not seen because of some other sutra. So jhalam jashonte means when there is a jhal varna at the end of a pada, it is converted to jash. That is all. There is no nimitta of ach. Ach is not a nimitta for jhalam jashonte. We'll see this. This will be clearer as we move through the phalsandhi. Padante jhalam jashah sibhu itteva artha. Anyat kimapi nasti jhalam jashonte ityatra. Vak ishaha vagishaha gives ishaha to make a pada, but it does not mean that the e should be there. Even simple vak is vag. It becomes vag by jhalam jashonte. Chit rupam chid rupam kevalam chit pashyantu atra achnasti ata eva dikshitaihi uvayam diyate. अचि अचीति निमित्तं नास्त्येव. चित् रूपं रेफे परेपि तकारस्य दकारे कृते चिद्रूपम् इति भवति. होप् यु आर् आल् क्लियर् अबौट् जस्ट् अ सन्धि. इट्स् अ वेरि सिम्पल् सन्धि अण्ड् अ वेरि कामन् सन्धि, बट् इट् इस् इट्स् अ मिस्कन्सेप्शन् दट् झलां जशोन्ते अकर्स् ओन्ली वेन् देर् इस् अच्. ओके, सो झलां जशोन्ते पदान्ते झलां जशः स्युः, वागीशः चिद्रूपम् इति उदाहरणम्. सो ही इस् पुट्टिङ्ग् दिस् सन्धि इन् इट्स् प्रापर् प्लेस्. इवन् दो हि हेड् आलरेडि इन्ट्रोड्यूस् झलां जशोन्ते अर्लियर्, हियर् हि इस् जस्ट् रिपीटिङ्ग् इट् टु मेक् श्योर् दट् इट् फाल्स् इन् प्लेस् अलाङ्ग् वित् द अदर् हल् सन्धीस्. Okay, there is a question. There is chidrupam. Does not it go back to chidrupam? No, it does not. Because chatra sandhi applies only when there is a khar varna. That is kha chatatha chatata kapa shashasa. When the karkasha varnas are following, it comes back to the first letter. But repha is not khar. It is a mridu vyanjana. So there is no conversion back to first letter. Okay, so we study kharicha later. For now, jhalam jashonte should apply wherever there is a pada at the where there is jhal at the end of a pada. Okay, so shall we move on? Jhalam jashonte agrimaha sandhihi bhavati anunasika sandhihi yaronunasikenu nasikova iti anunasika sandhi vidhayakam sutram chattari padani sandhi yaraha anunasike anunasikaha va. सरलं सूत्रं न पदान्तात् टोरनामित्यतः पदान्तात् इति अनुवर्तते षष्ठ्यन्ततया विपरिणम्यते. दिस् इस् संथिङ्ग् स्पेशल्. सी दट् आक्चुलि विल् सी द अन्वय इस् पदान्तस्य यरः षष्ठी रैट् दिस् पदान्ते विद्यमानः यः यर्वर्णः तस्य स्थाने इस् द मीनिङ्ग् विच् वि डिसैर् बट् द अनुवृत्ति इस् आक्चुलि पदान्तात् द पञ्चम्यन्ता इस् बीङ्ग् taken from the previous sutra, which is napadanta toranam. And he says, tatcha shashthyantataya viparinamyate, and it is being converted to a shashthi to enable the anvaya. Okay, this is, we see in many cases in sutras where the anuvritti might be of one vibhakti. Generally, whatever vibhakti gets anuvritti, it will be the same vibhakti which is applying here. But there are a few cases where the vibhakti is changed, that is called viparinama, the change of vibhakti. The padantat was panchami in napadantat toranam. When it comes to yaronunasikenu nasikova, it is converted to shashti because it is an adjective to yaraha. Yallingam yadvachanam yacha vibhaktihi visheshyasya tallingam tadvachanam sasa vibhaktihi visheshanasyapi. So the visheshana is always in the same vibhakti and vachana as the visheshya. Since padanta is a visheshya, visheshana to yar, it also is converted to shashti. कः अर्थः पदान्तस्य यरः इति षष्ठी उभयमपि षष्ठी पदान्ते विद्यमानस्य यर्वर्णस्य स्थाने अनुनासिके सप्तमी अनुनासिके परे अनुनासिकः आदेशः भवति. अनुनासिकः नाम अत्र वर्गस्य पञ्चमः वर्णः. मुखनासिकावचनोनुनासिकः इति सत्यम् अनुनासिकसंज्ञा, किन्तु यरः स्थाने विधीयमानः अनुनासिकः सर्वदा न्यमगणन इत्येतेषाम् अन्यतम एव भवति वा विकल्पेन आदेशो भवति. सूत्रार्थस्तु यरः पदान्तस्य अनुनासिके परे अनुनासिकः वा स्यात्. वेन् अ यर् वर्ण एट् द एण्ड् आफ् अ पद इस् फालोड् बै एन् अनुनासिक, द यर् विल् बि रीप्लेस्ड् बै एन् अनुनासिक. सूत्रार्थ एतत् मुरारिः अस्ति. अत्र पश्यन्तु एतत् वस्तुतः अयम् एतद् शब्द एव. सो दिस् आक्चुलि शुड् बि एतद् प्लस् मुरारिः ओन्लि, नाट् एतत्. ओके, दिस् इस् अ मिस्टेक्. सो इट् इस् एतद् मुरारिः. पदान्ते यर्वर्णः अस्ति दकारः. यर्वर्णः नाम हयवरट् इत्यत्र यकारादारभ्य शशसर् इत्यत्र रेफपर्यन्तं प्रत्याहारः. अर्थात् हकारं विहाय अन्ये सर्वे हल् वर्णाः यर् प्रत्याहारेण गृह्यन्ते. पदान्ते यर्वर्णः अस्ति चेत् तस्मात् अनुनासिके परे ङकारः अनुनासिकः, तस्मिन् परे दकारस्य स्थाने अनुनासिकः आदेशः भवति. अनुनासिकः नाम वर्गस्य पञ्चमो वर्णः. ञ म ङ ण न इत्येते अनुनासिकाः. तत्र आन्तरतम्यात् स्थाने अन्तरतमः इत्यत्वात् स्थानसाम्यात् तद्वर्गस्यैव पञ्चमः वर्णः आदेशः भवति. सो जनरलि इन् अनुनासिकसन्धि द आदेश इस् द फिफ्त् लेटर् आफ् दट् पर्टिक्युलर् वर्ग. वाट् एवर् यु आर् रिप्लेसिङ्ग् द सेम् वर्ग, द फिफ्त् लेटर् वुड् बि द आदेश. सो एत न् मुरारिः एतन् मुरारिः अनुनासिकसन्धौ कृते एतन् मुरारिः इति रूपं वा इति उक्तत्वात् यरोनुनासिकेऽनुनासिको वा विकल्पेन आदेशः आदेशाभावे एतद् मुरारिः इत्यपि साधु. बोत् फार्म्स् आर् करेक्ट्. when we do the anunasika desha, it would be etan murarihi, and when we don't do it, it would be etad murarihi. Right? Next, atra kashchana prashnaha, chaturmukhaha ityasti rupam shruyate, chaturmukhaha brahmanaha mamantaram. Atra repasya paratvena makaraha asti, repaha padante yarvarnaha, tasmatu anunasike pare, atrapi anunasika deshaha bhavati va. Repasya anunasika bhavati chet kaha bhavet, iti prashnaha. Question is, here also the rules apply. There is padanta yarvarna and there is also anunasika following it. So should we do anunasika adesha? If we should do, what would be the adesha? Is both the are both questions. So you know that the form is chaturmukhaha. There is no anunasika adesha. So there is no question of what would be the anunasika adesha. So why is there no anunasika adesha is a question. Ichita says sthana prayatnabhyam antaratame sparshe charitarthaha vidhirayam rephe na pravartate. It says, even if the sutra tells yaraha, this sandhi actually applies only in case of vargiya vyanjanas. Sparshe, sparshavarnaha, kadayo mavasanaha sparshaha ityuktam. Sparshavarneshveva asya sandhehe pravrittihi. Kutaha. If we are trying to do an anunasika for sparsha, say if we are trying to do dakara and we have to do an anunasika, we do nakara. Because nakara has samya in both sthana and prayatna. That is, the sthana is the same as danta. Dakara has danta and nakara is also danta. Also, both of them have the same prayatna, which is sprishta prayatna. So, the closest relation between anunasika and any other letter would be that for the vargiya vyanjanas. Whenever you are doing anunasika as the adesha, the closest sthani that could be there is a vargiya vyanjana, because it would be samya in both sthana and prayatna. Whereas if you have to do an anunasika for avargiya vyanjanas, then you cannot, there will not be antaratamya in case of with regard to prayatna. This is the prayatna for antasthaha is ishat sprishtam antasthanam vivrutam ushmanam swaranam chaityanena abhyantara prayatne bhedaha bhavatyeva tasmat sthana prayatnabhyam antaratame sparshe I think it should be charitarthaha ayam vidhihi nama anunasika vidhihi charitarthaha, it gets its satisfaction. Charitarthya is for any sutra which is created, there should be some example to justify it being there. So for this vidhi, for the anunasika vidhi, it is justified in being applying to the sparshavarnas, that is the vargiya vyanjanas. So its domain, it limits its domain to the vargiya vyanjanas. Rephe, that is in case of avargiya vyanjanas, repha or lakara or vakara, there is no anunasika sandhi. Sthana prayatnabhyam antaratame sparshe charitarthaha vidhirayam rephe na pravartate. So if it is repha at the end of a repha which is followed by anunasika, there is no anunasika sandhi. Tena chaturmukhaha ityeva rupam tatra sandhihi na bhavati. Traiva vartikam asti anunasika sandhi sambandham pratyaye bhashayam nityam iti vartikam. Anunasika sandhihi vikalpena vihitaha eronunasike anunasiko va iti vikalpena. Anenatu nityam, compulsorily this tells anunasika. When laukika prayoge bhashayam, arthat laukika bhashayam, laukika samskrute pratyaye pare, arthat pratyayasthe anunasike pare nityam anunasika adesho bhavati. Come back to this question. So now he says laukika prayoge pratyayasthe anunasike pare nityam anunasika adeshah sya. In laukika Sanskrit only, whenever there is an anunasika which is a part of a pratyaya, then the anunasika adesha would be nitya. An example is tat pramanam yasya ityarthe tad matram अस्ति मात्रच् प्रत्ययः विधीयते तच्छब्दात् मात्रच् प्रत्ययः प्रमाणे द्वयसच् दध्नच् मात्रचः इत्यनेन मात्रच् प्रत्ययः विधीयते अयं प्रत्ययः भाषायां लौकिकप्रयोगे प्रत्यये परे प्रत्ययः प्रत्ययस्थः यः अनुनासिकः तस्मिन् परे नित्यमेव अनुनासिकसन्धिः भवति तन्मात्रम् इत्येव रूपं सिन्स् मात्रच् इस् अ प्रत्यय देर् इस् नो तद् मात्रं द रूपा इस् ओन्ली तन्मात्रं द अनुनासिकादेश इस् नित्य सिमिलर्ली चिन्मयं चित् शब्दात् मयट् इति प्रत्ययः क्रियते प्रत्यये परे नित्यमेव अनुनासिकः भवति इत्यनेन चिन्मयम् इति रूपं भवति तन्मात्रं चिन्मयम् इति प्रत्यये भाषायां नित्यम् इत्यस्य उदाहरणं सो जनरली द अनुनासिकादेश इस् विकल्प बट् इफ् द फालोयिङ्ग् पार्टिकल् इस् अ प्रत्यय देन् द अनुनासिकादेश इस् नित्य सो हियर् प्रिया हेड् अ क्वश्चन् वेन् द सूत्र सेस् यरोनुनासिके अनुनासिको वा and we still limit the range to sparsha varnas so why not start with say sparsha varnas only say jhar or yar or something yar yaraha gets anuvritti in a lot of other sutras we have already seen the sutras also achoraha abhyam dve anachicha sarvatrapi yaraha ityasya anuvritti apekshate tasmar atrapi yaraha iti uchyate panimina sadharane तत्र रेफस्य वकारस्य वा विषये न भवति इति प्रयोगतः ज्ञातव्यम् इत्यस्य आसीत् आशयः इस् ट्रैङ्ग् टु कम्प्रेस् द यर् इस् टेकन् फार् एन् अनुवृत्ति इन् द फर्दर् सूत्र इन् मेनि फर्दर् सूत्र सो हि टेल्स् यर् हियर् आल्सो एण्ड् लीव्स् इट् टु अस् टु डिसैड् दट् देर् इस् नो अनुनासिका इन् केस् आफ् फ्यू वर्णास् विच् कम् अण्डर् यर् Okay, there is one more question. What about sh or s at padanta? Will the same reason apply? Yes, the same reason would apply. And also, there is no sh or s which would be heard at the end of a pada. There are always sutras which convert shakara or sh 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 at the end of a pada. It is always converted by jastva. or there is vrashta vrashta which converts the shakara to shakara. Or even if it is sakara, there would be loka probably. So shu 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 at the end of a pada is, I thought of this question actually and I realized that there is no shu 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 at the end of a pada. I couldn't think of any padas which end with shu shu shu. Right. It is always converted to vaijastva or something else to a vargiya vyanjana. So once vargiya vyanjana is there, the anunasika sandhi would happen. But if there are padas which end in shu shu shu, then there would not be anunasika. अनुनासिकसन्धिः श्रुत्वं श्रुत्वं जस्त्वम् अनुनासिकसन्धिः चत्वारः सन्धयः समाप्ताः अत्रैव अन्यः कश्चन प्रश्नः अस्ति कथं तर्हि मदोदग्राः ककुद्मन्तः इति प्रत्यये भाषायां नित्यम् इति उक्तम् अर्थात् प्रत्यये परे भाषायां लौकिकभाषायां प्रत्यये परे नित्यमेव अनुनासिकसन्धिः भवति इति उक्तम् किन्तु कालिदासस्य प्रयोगः दृश्यते मदोदग्राः ककुद्मन्तः इति कस्मिन् काव्ये इति न जानामि किन्तु ककुद्मन्तः इति पदं प्रयुक्तं कालिदासेन कथं तर्हि ककुत् येषाम् अस्ति इत्यर्थे ककुद् इति दकारान्तात् शब्दात् मतु प्रत्ययः क्रियते ककुद् मन्तः इति स्थिते प्रत्यये भाषायां नित्यमित्यनेन नित्यमेव अनुनासिकसन्धौ ककुन्मन्तः इति स्यात् ककुद्मन्तः इति कथं प्रयोगः हौ डिड् How can you justify the prayoga? Kakudmantaha. Kalidasa uses kakudmantaha. Here, if we use pratyaya bhashayam nityam, the anunasika should have occurred. It should have occurred compulsorily. And the form should have been only kakunmantaha. But still, the form is kakudmantaha and it is correct. How? It says, yavadigane dakara nipatana. Yavadiganaha namakashtana ganahasthi. मादुपधायाश्च मतोर्वो अयवादिभ्यः सूत्रे अयवादिभ्यः यवादिभ्यः यवादिगणे केचन शब्दाः पठिताः तद्भिन्नेभ्यः मतुपः वकारादेशः विधीयते अनेन सूत्रेण सो दिस् इस् अ सूत्र विच् इस् referring to the matup pratyaya, something which happens to the matup pratyaya. In that there is a gana called yavadi gana. Okay. In that gana he has, Panini has told many shabdas, and in that he says kakud, that is when followed, since this is matup pratyaya. Look at the gana goes like this, yava, dalmi, urmi, bhumi, etc. And you can see the kakud here. So, Panini has used the word kakud here. Dakaraha nipatyate. Says if, since this gana is anyway concerned only with matup pratyaya, if Panini wanted, or if the prayoga had anunasika, Panini would have said kakun here. ककुन इत्यस्मात् मतुपि परे वकारादेशो न भवति इत्यर्थे ककुन इति पाणिना उच्येत. पाणिनि वुड हैव सेड ककुन, बट ही हैज सेड ककुद, व्हिच मींस देयर इज नो अनुनासिकादेश टू ककुद. So when you have kakut, since dakara nipatana, I had explained earlier, dakara nipatana is the form for ready-made form. That is, he tells some pada and tells us this is correct. So you do not need to apply any logic or sutra over it. It is a ready form. So similarly here, kakud followed by matup is a ready-made form which is given by Panini, and so it should be kakudman and not kakunman. You see, it's also with garutman. Garutman, garudastha, akshya, vainateya, khageshwaraha. इत्युच्यते तत्रापि तथैव अस्ति. येषु गणे अस्मिन् गणे ये शब्दाः पठिताः तेषाम् आदेशो न भवति, यथा अस्मिन् गणे श्रूयन्ते शब्दाः तथैव प्रयोक्तव्याः इति नियमात् अत्रापि अनुनासिकादेशो न भवति इत्यर्थः. एक्साक्ट्लि सेम् वित् गरुत्मान् ककुद्मान्, एव्रिथिङ्ग् वुड् बी यूसिङ्ग् द सेम् लाजिक्. ओके, सो इति अनुनासिकसन्धिः. There is a question there, somebody is asking. It refers to the Bala Manorama. There is a Nyaya in the Bala Manorama. It says, where is my question? So the Nyaya says, what's the exact Nyaya? I don't remember what it, what's the exact text. Unilabdheta yuvatihi jarathe ramate katham. Okay, this is actually a Laukika Nyaya which they used to support this Chaturmukha. Says, Thana Prayatna Abhyam Antaratame Sparshe Charitarthaha Ayambhihi Rephena Pravartate. He says the Anunasikas, for being the Adesha, they have two choices. One thing is they can be an Adesha for the Sparsha Varnas, and they can be an Adesha for Avargiya Vyanjanas. They choose to be an Adesha for only the Sparsha Varnas because they are more affiliated, because there is more affiliation, because they are have both Samya due to both Sthana and Prayatna. That is why the Anunasika will be an Adesha to only the Sparsha Varna and not to a Asparsha Varna, which is Antastha or an Ushma Varna. He says, he gives a Laukika Nyaya which says, Unilabdhetu Yuvatihi Jarathe Ramate Katham. A young girl, Yuvatihi, she has two choices. Either she has to choose, there is a choice, she is a young man who would fit her in, say, youth and beauty and all. And there is a Jaratha. Jaratha is an old man. That is, there is no Samya. So who would she choose? Unilabdhe, when she has the option of a young man, Yuvatihi Jarathe Katham Ramate. How or why will she be attracted towards an old man? So means, since the Yuvaka, if it is a young man, here in this case you would say he has the Samya in Yavana, in Rupa and whatever, and there is no Samya with the Vritha. So she would naturally tend to go towards the Yuvaka. Similarly, the Anunasika Varna, since it has more Samya with Sthana and Prayatna, with the Sparsha Varnas, it would be an Adesha for the Sparsha Varna and not for the Repha or other letters. Okay. Any other questions with the sandhis which we did so far? Four sandhis: chutva, shtutva, jastva and anumasika. If there are no questions, I'll do one more. Start with one more sandhi, which is the next sandhi is parasavarana sandhi. Torli. Torli iti sutram, padadvayam asti, tohu li. Anusvarasya ee parasavarnaha, ityataha parasavarnaha iti anuvartate. Tohu iti shashti vibhaktihi, arthat tavargasya sthane, li iti saptami lakare pare, parasavarnaha bhavati. Tavargasya sthane lakare pare parasavarnaha bhavati. Iti sutra. When a letter of the tavarga is followed by lakara, there would be parasavarna. Tavargasya lakare pare parasavarnaha syat. Tad layaha ityasti. Tavargaha dakaraha tavargasya varnaha lakare pare. Tavargasya lakare pare parasavarnaha. Parasya savarnaha. Paraha varnaha atra lakaraha. Lakarasya savarnaha adeshaha bhavati. Yukta lakara eva adeshaha bhavati. Ta l layaha tal layaha. Iti rupam. Now, lakarasya savarnau dvo. Anunasika ananunasikatvabhyam yavalaha dvidha. So lakara has two forms, l and n, which are savarnas of each other. So when you say parasavarna, if it is dakara, you get lakara as the adesha. But if the varna is anunasika, for example vidvan likhati, then this, the anunasika lakara would be the adesha because of antaratamya, right? So dakarasya sthane lakaraha, nakarasya sthane adeshaha bhavati chet, anunasika lakaraha adeshaha bhavati, vidvan likhati. Ityatra anunasikaha. Nakarasya anunasiko lakaraha. Nakarasya sthane anunasikaha lakaraha adeshaha bhavati. Iti parasavarna sandhi. I think we should stop here. Any questions? Just five sandhis. The next sandhi is purvasavarna sandhi. This covers five of the hal sandhis. Any questions, please ask. Else, we'll stop. Vargiya Vyanjanaha Kaha. Means, you want to know which are the Vargiya Vyanjanas? From Ka to Ma. Ka, kha, ga, gha, nga are the kavargiya, kavarga. Cha, cha, ja, cha, ya is chavarga. Tavarga, tavarga, pavarga. They are the five vargas. And these 25 letters are called the vargiya vyanjanas. Ya, ra, la, va, sho, sho, sa, ha. Ityete, ashtau, avargiya vyanjanani. Any other questions? समापयामः एनाक्षर समां नायमधिगम्य महेश्वरान्. What's the Sanskrit name of diphthongs? What are diphthongs? I'm not very strong in English terminology actually. Can anybody else answer? What are diphthongs exactly? What are the letters which are called diphthongs? A-I-O-O. Okay. I think you are referring to Sandhyaksharas. That is, they are not conjunct consonants, they must be conjunct ovals. That is, Sandhyakshara is what we call. A-I-O-O are what are called Sandhyaksharas because they are not pure ovals. As in, like A-E-U are pure ovals, but A has a part of Akara and a part of Ikara. Similarly, I. And also O has a part of Akara and a part of Ukara. We call them Sandhyaksharas. ಏನಾಕ್ಷರಸಮಾಂನಾಯಮಧಿಗಮ್ಯಮಹೇಶ್ವರ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ ವಾಕ್ಯಕಾರಂ ವರರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣಸ್ಮುನಿತ್ರಯಂ ಮುನಿತ್ರಯಂ ನಮಸ್ಕೃತ್ಯ ತದುಕ್ತೀಶ್ ಪರಿಭಾವ್ಯ ಚ ವೈಯಾಕರಣಸಿದ್ಧಾಂತಕೌಮುದೀಯಂ ವಿರಚ್ಯತೆ.